नमस्सर्वेभ्यः अद्य तिङन्तप्रक्रियायां चतुःपञ्चाशः पाठः जनवरी मासस्य तृतीयः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। Well, welcome back after the long unintended break. Somehow, I mean, since almost the past 6 months, I've been thinking, okay, only two more ganas to go. And it keeps going on and on. Let's hope at least this time we'll be able to take it to completion. Punaravartanam adadiganasya धातूनां रूपसिद्धिः आरब्धा। अदादिगणः धातुपाठक्रमे द्वितीयः गणः, अस्माभिः अधीयमाने क्रमे तु अन्तिमः गणः। अदभक्षणे इत्यारभ्य नुङ् अपनयने इत्येतत्पर्यन्तं द्विसप्ततिः धातवः अदादिगणे अन्तर्भवन्ति। तत्र विशिष्य कस्यापि विकरणस्य विधानं नास्तीत्यतः औत्सर्गिकतया कर्तरि शप् इति शप् विकरणप्रत्ययः भवति। तस्य शपः अधिप्रभृतिभ्यः शपः इत्यनेन लुक् भवति। एवं सति सर्वाणि अङ्गानि शपः शपीकृते लुप्ते च सर्वाणि अङ्गानि अनदन्तानि सम्पद्यन्ते। यतोहि धातुपाठे कुत्रापि अदन्तः धातुः नास्ति, चुरादिगणं विहाय कुत्रापि अदन्तः धातुः नास्ति। अतः सर्वे धातवः अनदन्ताः, इत्यतः अङ्गम् अनदन्तम्। अनदन्तेभ्यः अङ्गेभ्यः एते प्रत्ययाः योज्यन्ते, सर्वदा स्मर्तव्याः। तत्र अदादिगणे अजन्तधातूनां रूपसिद्धिः किञ्चिदधीत, आकारान्तानाम् इकारान्तानां च रूपसिद्धिः तत्किञ्चित् पुनरावर्त्य अग्रे सरामः। आकारान्तेभ्यः धातुभ्यः प्रत्ययेषु लङ्शाकटायनस्यैव इत्यनेन अन् झि इत्यस्य स्थाने जुस् आदेशः विकल्पेन विधीयते, अतः प्रत्ययद्वयं भवति अन् उः। आकारान्तेभ्यः धातुभ्यः एतत् स्मर्तव्यम्। तत्र वा इति धातुः, तस्य रूपसिद्धौ अङ्गकार्यं किमपि नास्ति, केवलं सन्धिकार्यम्। सवर्णे परे अकस्सवर्णे दीर्घः, अमि परे अमिपूर्वः इति पूर्वरूपम्, जुसि उस्य परान्तात् इत्यनेन पररूपम्, इत्येतानि सन्धिकार्याण्येव भवन्ति। वाति वातः वान्ति इत्यादीनि रूपाणि। भादिगणे यः गाङ् धातुः गाङ्गतौ इति, तस्यापि एवमेव रूपाणि। गाङ् धातुः आत्मनेपदी ङित्वात् तत्रापि सवर्णे स्वरे सवर्णदीर्घः, असवर्णे वृद्धिरेचि एचि परे वृद्धिः, अन्यत्र आद्गुणः इत्यनेन गुणः। गाते 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 इत्यादीनि रूपाणि दृष्टानि। दरिद्रा इति धातुः आकारान्तः, तस्य विशेषः जक्षित्यादयश्चट् इति सूत्रेण अभ्यस्तसंज्ञा भवति। यत्र यत्र अभ्यस्तसंज्ञा तत्र त्रिषु स्थलेषु भेदः भवति। अति अतु झि इत्यस्य स्थाने झोन्तः इति अन्तादेशं बाधित्वा अदभ्यस्ताद् इत्यनेन अरादेशः भवति। लङ्लकारे सिजभ्यस्तविधिभ्यश्च इत्यनेन नित्यं जुस् आदेशः भवति। इत्येते त्रयः प्रत्ययाः भिद्यन्ते अनदन्ताङ्गेभ्यः। तेषु प्रत्ययेषु कृतेषु दरिद्राधातोः अङ्गकार्यद्वयं दृश्यते। इद्दरिद्रस्य इत्यनेन इदादेशः विधीयते हलादौ प्रत्यये, हलादौ अपिति प्रत्यये।
अजादौ अपिति श्नाभ्यस्तयोराताः इत्यनेन अन्त्यस्य आकारस्य लोपः विधीयते। दरिद्र अति दरिद्राति दरिद्रितः दरिद्रति दरिद्रासि दरिद्रितः दरिद्रिथ दरिद्रामि दरिद्रिवः दरिद्रिमः इति रूपाणि। हलादौ पिति किमपि कार्यं नास्ति। अजादौ पिति अकसवर्णदीर्घः इत्यनेन सवर्णदीर्घः अथवा अमिपूर्वः इति पूर्वरूपम्। दरिद्राणि दरिद्राव दरिद्राम अदरिद्राम् इत्येतानि रूपाणि। ततः इकारान्ताः धातवः दृष्टाः। इकारान्ताः त्रयः धातवस्सन्ति अदादिगणे। इण् इक् इङ् अनुबन्धरहिताः सर्वेऽपि इ इत्येव धातवः। अनुबन्धलोपे कृते सर्वत्र इ इत्येव शिष्यते, तथापि रूपे भेदः अस्त्येव। कथं भेदः? इण् गतौ इति धातुः, तस्य पित्सु गुणः हलादौ पिति गुणः अजादौ पिति गुणः अयादेशः। अपित्सु अजादौ सामान्यकार्यं भवति इयङ्। एतत्तु स्मर्तव्यं। रिमेम्बर् ऐ मीन् बै द टैम् वी हेव् कम् हियर् यु शुड् आल्वेस् बि एबल् टु प्रिडिक्ट् वाट् इस् द जनरल् कार्य फार् अ पर्टिक्युलर् अन्त। से फार् एक्साम्पल् इफ् इट् इस् इकारान्त, यदि इकारान्तः धातुः तर्हि सामान्यं किम् औत्सर्गिकं कार्यं किं भवति? पित्सु गुणः अपित्सु अजादौ इयङ् आदेशः इत्येव औत्सर्गिकं कार्यम्। एनिथिङ्ग् एल्स् केन् बि एन् एक्सेप्शन्, बट् द नार्मल् रूट् फार् एनी इकारान्त इस् गुण इफ् इट् इस् पित्, एण्ड् इफ् इट् इस् अपित् अजादि देन् इयङ्। सिमिलर्ली इफ् यु टेक् उकारान्त इट् विल् बि गुण इफ् इट् इस् पित्, एण्ड् इफ् इट् इस् अपित् इट् विल् बि उवङ्। अचिष्णधातु भ्रुवाम् इत्यनेन उवङ् आदेशः सामान्यकार्यम्। इफ् इट् इस् ऋकारान्त सो पित्सु गुणः अपित्सु अजादौ यण्, सिन्स् इट् डस् नाट् हव् कारादेश, सो यु हाव् इफ् यु हाव् ऋकारान्त द कामन् कार्य विल् बि यण्। सिमिलर्ली इफ् इट् इस् ऋकारान्त पित्सु गुणः अपित्सु ऋत इद्धातोः इत्यनेन इदादेशः। सो यु शुड् अनलैज् एण्ड् रिमेम्बर् वाट् इस् द नार्मल् कार्य। सो आल्वेस् एक्सेप्शन्स् विल् बि मेन्शन्ड् एट् दट् प्लेस्। सो इफ् देर् इस् नो मेन्शन् वाट् वुड् बि द सामान्य कार्य, इट् इस् वेरि वेरि इम्पार्टेण्ट् टु रिमेम्बर्। अत्र इयङादेशं बाधित्वा इणो यण् इति विशेषसूत्रेण यण् आदेशः विधीयते। इक् स्मरणे इति धातुः नित्यम् अधिपूर्वः, तस्य धातोः सर्वदा अधि इति उपसर्गेण सह एव प्रयोगः भवति। तस्य रूपाणि इणः रूपैः समानानि, यतोहि इण्वदिक इति वक्तव्यम् इति वार्तिकम्। अतः इक् स्मरणे इति धातोः इण्वदेव रूपाणि। सो अधि इणः रूपाणि यानि सिद्धानि तेभ्यः अधि इति उपसर्गः योजनीयः। सो वि फस्ट् प्रिपेर् द रूपास् आफ् इण्, एति इतः यन्ति, देन् एड् अधि, अधि एति, अध्येति, अधीतः, अधीयन्ति इत्यादीनि रूपाणि भवन्ति। इङ् अध्ययने इति धातुः अयमपि नित्यम् अधिपूर्वः, अयञ्च नित्वात् अनुदात्तङितात्मनेपदम् इति आत्मनेपदी भवति। तस्य पित्सु गुणः अपित्सु इयङ् सामान्यम्। सो दिस् इस् द औत्सर्गिक, पित्सु गुणः अपित्सु अजादौ इयङ्। इन् गतौ इत्यस्य तु विशिष्य इणोयण् इति विहितत्वात् यणादेशः भवति। इक् धातोः इण्वदिक इति वक्तव्यम् इति वार्तिकबलात् इणोयण् इत्यनेनैव यणादेशः भवति। तर्हि कथं रूपाणि वयम् इण् धातुः? तर्हि हलादौ पिति गुणः एति एषि एमि, अजादौ पिति गुणः अयादेशः, अजादौ अपिति इणो यण् इत्यनेन यणादेशः, अन्यत्र न किञ्चित्, एति इतः यन्ति, एषि इतः इथ, एमि इवः इमः इति रूपाणि। इक् धातोः एति इत्यादीनि रूपाणि, सो दीस् आर् द रेडी फार्म्स् आफ् इण्, तेभ्यः अधि इति उपसर्गः योज्यते। तत्र इकारादौ प्रत्यये परे सवर्णदीर्घः, अन्येषु अजादिषु प्रत्ययेषु परेषु इको यणसि इत्यनेन यणादेशः हलादौ प्रत्यये परे किमपि कार्यं नास्ति अध्येति अधीतः अधीयन्ति अध्येषि अधीतः अधीत अध्येमि अधीवः अधीमः अध्ययानि अध्ययाव अध्ययाम इत्येवं रूपाणि भवन्ति इक् स्मरणे इति धातोः इङ् अध्ययने इति धातोः पित्सु गुणः अयादेशः अपित्सु अतिष्ठधातुभ्रुवाम् इत्यनेन इयङादेशः अतः इयाते इयते इते इयाते इयते अधि इत्यस्मिन् कृते अधीते अधीयाते अधीयते अधीशे अधीयाथे अधीध्वे अधीये अधीवहे अधीमहे इत्येवं रूपाणि भवन्ति अधुना ईकारान्तान् धातून् पश्यामः ईकारान्ताः चत्वारः धातवः अस्मिन् गणे सन्ति वी धातुः गतिव्याप्तिप्रजनकान्त्यसनखदनेषु गतिः मूमेण्ट् व्याप्तिः स्प्रेड् प्रजन टु बेर् कान्ति टु शैन् असनम् असुक्षेपणे टु थ्रो खदनम् भद्रुभक्षणे एस् अ धातु सो इट् इस् यूस्ड् इन् अ वेरी रेञ्ज् आफ् मीनिङ्ग्स् शिङ् स्वप्ने टु स्लीप् दीभीङ् दीप्तिदेवनयोः वेवीङ् वेतिना तुल्ये वेतिः इस् द वी धातु सो वेवीङ् इस् यूस्ड् इन् द सेम् सेन्सस् एस् द वी धातु दीधीङ् वेवीङ् इत्येतौ छान्दसौ धातु वेदे एव उपयुज्येते वी शीङ् इत्येतौ तु लोके अपि उपयुज्येते नौ वी अनीकारान्त सो द नार्मल् कार्यस् वी धातोः कार्याणि हलादौपिति गुणः सार्वधातुकार्धधातुकयोरिति अजादौपिति गुणः अयादेशः हलादौ अपिति क्षम्यतां सो देर् इस् अ टैपिङ्ग् एरर् हलादौ अपिति किमपि कार्यं नास्ति अजादौ अपिति अजिष्णुधातुभ्रुवाम् इत्यनेन इयङ् आदेशः सो एस् यु केन् सी दिस् इस् द नार्मल् कोर्स् फार् एनी इकारान्त सो पित्सु गुणः अपित्सु इयङ् आदेशः सो हलादौपिति गुणः वे वेति वेषि वेमि इत्यादि अजादौपिति गुणः अयादेशः वि आनि वे आनि वयानि हलादौ अपिति किमपि नास्ति वि इत्येव वीतः वीथः इत्येव रूपाणि अजादौ अपिति अचिष्णुधातुभ्रुवां युवोरियङौ इत्यनेन इयङादेशः वियन्ति वियन्तु अवियन् सो Anybody wants to take a go at the forms of V? Yes, Paul.
Veti. Vitaha.
वीतः
दियन्ति वीतः ओके वीतः
ओके
वीतः देशि वित्थः वीथ एमि वीवः वीमः वेतु वीतात् वीताम् यानि
वयानि
वयानि वयाव वयाम वेत् अवेत् अवेताम् avyan, avyan. Avehe. Avitam. Avita. Avayam. Aviva. Avima. Vyat.
Vyata. Vyat.
Vyat. Did I make it hasva?
Yes.
I didn't know. Okay. Vyat, vyatam, vyuhu. Vyaha, vyatam, vyata, vyam, vyava, vyama.
Vyava, vyama. Yes. So, vidhatoho, rupeshu, samanya karyani, ikarantase yat utsargikam, tadeva bhavati. Anyesham dhatunam, shing, didhing, veving, ityetayoho, rupeshu, kashtana visheshaha, asti. Shing dhatuhu, tatra sutra dvayam smartavyam. Shinga sarvadhatuke gunaha, iti, sutram, asti. Shingaha, iti, shashthekavachanam. Sarvadhatuke, iti, saptamyekavachanam. Gunaha iti prathamaikavachanam. Hangadhikaraha. Shing dhatorangasya sarvadhatuka pratyaye pare gunaha syat. Sarveshu sarvadhatuka pratyayeshu pareshu shing dhatohu gunaha vidhiyate. Visheshavihitatvat nitica ityasya apavadaha. Itohi pitsu pratyayeshu sarvadhatuka ardhadhatuka yoho ityanenaiva gunaha prapnoti. Apitsu yadi guna nishedha kriyate, tarhi idam sutram vyartham. So this sutra makes no sense if we apply niticha. Therefore, in this case, because it specifically says shinga sarvadhatuke gunaha, niticha will not apply. Sarveshu pitsu apitsu cha pratyayeshu pareshu gunaha bhavati. So in all cases, all pratyayas, standard shi dhatu gets guna because of this sutra. So shi te ayamapi atmanepadi nyatvat. So te iti apit pratyaha haladihi apit tatrapi shinga sarvadhatuke gunaha ityanena gune shete shete shayate sherate iti sarvatra gunaha bhavati. Idam prathamam sutram shing dhatoho vishaye. Dvitiyam asti shingo rut. Shingaha iti shashtheka vachanam. Rut iti prathamaika vachanam. Jaha iti anvartare jhontaha adabhyastat atmanepadeshvanataha shingo rut iti sutra kramaha. So jhakarasya pratyayavayasya jhasya antadeshaha vidhiyate. Adabhyastat abhyastarangat parasya jhakarasya adadeshaha vidhiyate. Atmanepadeshu anataha anadantarangat parasya jhakarasya atmanepadeshu adadeshaha shingaha rut. Tatra jaha iti anuvartate adabhyastarityataha at iti anuvartate. So this at tasmin sutre prathamantam kintu asmin sutre shashtyantataya viparinamyate. So we see this in some cases during anuvritti. When you take padas from previous sutras as anuvritti, normally the vibhakti also will remain the same. But there are a few cases where, based on the commentary, we will have to change the vibhakti of the word which we have taken from anuvritti. So here we are taking at from arabhyastat, which is actually prathamanta. But here it is converted into a shashtyanta. The shingaha here is actually panchami, not shashti. So this is actually 5. So panchamyantam. Just one moment. So shinaha parasya chakarasya yaha adadeshaha tasya rut agamaha iti sutrarthaha. Shinaha angat parasya jhadeshasya ataha rudagamaha. So at is actually the sthana shashti here. The adadesha which follows sheen gets root as an agama. Root ityatra repaha agamaha adyantau takitau ityanena adadeshasya adyavayavaha. So at the beginning of at we add r. Ataha she ate ityasti. Shinga sarvadhatuke gunaha ityanena gune she ate adadeshasya rudagame krate she r ate sherate shete shayate sherate iti rupam. Sutradvayam smartavyam shinghatoho shinga sarvadhatuke gunaha ityanena sarvesha sarvadhatuka pratyayeshu pareshu gunaha bhavati shingorutu ityanena rudagamaha bhavati adadeshasya. Shinghatoho karyani haladau piti apiti sarvatra shinga sarvadhatike gunaha ityanena gunaha bhavati ajadau piti apiti cha gunaha ayadeshascha. Gune krate echo ayavayavaha ityanena ayadeshah adadeshe vishishya gunaha rudagamascha bhavati. Ataha so haladau sarvatra gunaha she iti bhavati shete sheshe shevahe shemahe ityadi ajadau sarvatra gunaha ayadeshaha shayate she ate shayate shayathe shaye shayai ityadi yatra yatra adadeshaha asti tatra gunaha rudagamascha shingorute ityanena rute ruti sherate sheratam asherata iti rupani. Okay. Himanshu mahode.
She te shayate sherate. She se
sheshe
sheshe shayathe shedve shaye she vahe she mahe shetam shayatam sharatam
sheratam
sheratam sorry sheratam sheshwa
sheshwa
shaya sheshwa shayatham shedhum shayai shayavahai shayamahai shet asheta ashayatham asherat
asherata
asherata ashethah ashayatham ashidvam ashayi ashevahi ashemahi shayitam shayitam
shayita
shayiyatam shayita shayiyatam shayiram shayithah shayiyatam shayithah shayiyatam shayidvam shayiya shayivahi shayimahi
shayivahi shayimahi samyak. So shing dhatoho sarvatra gunaha iti ekaha visheshaha ಶೀಂಗೋರುಟ್ ಇತಿ ರುಡಾಗಮಃ ವಿಶೇಷಃ. ಅಗ್ರೆ ಅನ್ಯೌ ದ್ವೌ ಈಕಾರಾಂತೌ ಧಾತು ದೀಧೀಂಗ್ ತಥಾ ವೇವೀಂಗ್ ಏತೌ ಛಾಂದಸೌ ಅರ್ಥಾತ್ ವೇದೇ ಏವ ಅನಯೋಃ ಪ್ರಯೋಗಃ. ಜಕ್ಷಿತ್ಯಾದಯ ಷಟ್ ಇತ್ಯನೇನ ಅಭ್ಯಸ್ತ ಸಂಜ್ಞಾ ಅಪಿ ಅಸ್ತಿ. ಸೊ ಆಸ್ ವಿ ಸಾ ಇನ್ ದ ಪ್ರೀವಿಯಸ್ ಒನ್, ಜಕ್ಷ ಇತ್ಯಾರಭ್ಯ ಸಪ್ತ ಧಾತೂನಾಂ ಅಭ್ಯಸ್ತ ಸಂಜ್ಞಾ ಅಸ್ತಿ ಅದಾದಿಗಣೆ, ತತ್ರ ಏತೌ ಧಾತು ಅಪಿ ಅಂತರ್ಭವತಃ. ಅಪಿ ಚ ವಿಶೇಷ ಸೂತ್ರದ್ವಯಂ ಅಸ್ತಿ ಅತ್ರಾಪಿ. ದಿಧಿವೇವೀಟಾಂ ಇತಿ ಸೂತ್ರಂ ಪ್ರಥಮಾಧ್ಯಾಯೇ ಪ್ರಥಮಪಾದೇ. ವೃದ್ಧಿರಾದೈಚ್ ಅದೇಂಗುಣ ಇಕೋ ಗುಣವೃದ್ಧಿ ನ ಧಾತು ಲೋಪ ಅರ್ಧಧಾತುಕೆ ಣಿತಿ ಚ ದಿಧಿವೇವೀಟಾಂ. ದಿಧಿವೇವಿ ಇಟಾಂ ಷಷ್ಠಿ ಬಹುವಚನಂ. ಗುಣವೃದ್ಧಿ ಇಕೋ ಗುಣವೃದ್ಧಿ ಇತ್ಯತಃ ಗುಣವೃದ್ಧಿ ಇತಿ ವರ್ತತೆ. ನ ಧಾತು ಲೋಪ ಅರ್ಧಧಾತುಕೆ ಇತ್ಯತಃ ನ ಇತಿ ಚ. ಸೊ ಏತೇಷಾಂ ಗುಣವೃದ್ಧಿ ನಸ್ತಃ. ಸೊ ಕಿಂಗಿತಿ ಚ ಇತ್ಯೇತಸ್ಯ ಸ ಅನಂತರಂ ಸಪದಿ ಇರಮುಚ್ಯತೆ. ದೀಧಿವೇವ್ಯೋ ಇಟಶ್ಚ ಇಟ್ ಇತ್ಯನೇನ ಇಡಾಗಮಃ ಉಚ್ಯತೆ, ತಸ್ಯ ಚ ಗುಣವೃದ್ಧಿ ನಸ್ತಃ. ಸೊ ದೀಸ್ ಧಾತೂಸ್ ವಿಲ್ ನಾಟ್ ಗೆಟ್ ಈದರ್ ಗುಣ ಆರ್ ವೃದ್ಧಿ ವಾಟ್ ಎವರ್ ಬಿ ದ ನಿಮಿತ್ತ. ಇಗ್ ನಿಮಿತ್ತೆ ಇಗ್ ಲಕ್ಷಣ ನಿಮಿತ್ತೆ ಗುಣವೃದ್ಧಿ ನಸ್ತಃ. ಸೊ ಎನಿ ಗುಣ ಆರ್ ವೃದ್ಧಿ ಫಾರ್ ಇಕ್ ದಟ್ ಇಸ್ ಸೊ ದಿಧಿ ವೇವಿ ಯು ಹ್ಯಾವ್ ದ ಫೈನಲ್ ಇಕ್ ಆರ್ ದ ಇಟ್ ವೆನ್ ಎವರ್ ವಿ ಡೂ ಇಡಾಗಮ. ಸೊ ದ ಇಡಾಗಮ ವಿಲ್ ನಾಟ್ ಗೆಟ್ ಕನ್ವರ್ಟೆಡ್ ಟು ಈದರ್ ಗುಣ ಆರ್ ವೃದ್ಧಿ. ಸೊ ಸಿಮಿಲರ್ಲಿ ಫಾರ್ ದೀಸ್ ಟು ಧಾತೂಸ್ ದೇರ್ ಇಸ್ ನೋ ಗುಣ ಆರ್ ವೃದ್ಧಿ ವಿಚ್ ಅಪ್ಲೈಸ್ ಇತಿ ಪ್ರಥಮ ಸೂತ್ರ. ದ್ವಿತೀಯಮಸ್ತಿ ಯೀ ವರ್ಣಯೋ ದಿಧಿವೇವ್ಯೋ. ಯೀ ವರ್ಣಯೋ ಸಪ್ತಮೀ, ದಿಧಿವೇವ್ಯೋ ಇತಿ ಷಷ್ಠಿ, ಲೋಪಃ ಇತಿ ಅನುವರ್ತತೆ ಅಂಗಾಧಿಕಾರಃ. ದಿಧಿವೇವ್ಯೋ ಅಂಗಸ್ಯ ಲೋಪಃ ಸ್ಯಾತ್ ಯಕಾರೇ ಇವರ್ಣೇ ಚ ಪರೆ. ಸೊ ವೆನ್ ಫಾಲೋಡ್ ಬೈ ಯಕಾರಾದಿ ಪ್ರತ್ಯಯ ಆರ್ ನಿಕಾರಾದಿ ಪ್ರತ್ಯಯ ದಟ್ ಇಸ್ ಲೋಪ, ದ ಫೈನಲ್ ಈಕಾರ ಗೆಟ್ಸ್ ಡಿಲೀಟೆಡ್. ಸೊ ಯು ಹ್ಯಾವ್ ದಿಧಿ ಈತ, ತತ್ರ ಈಕಾರಸ್ಯ ಲೋಪೇ ದೀಧ್ ಈತ ಇತಿ ಭವೇತ್. ಸೊ ದೀಧೀತ ಏವಮೇವ ಯಕಾರಾದೌ ಪ್ರತ್ಯಯೇ ಪರೆ ಆದಿಧೀ ಯ ಸತ್ರಾಪಿ ಆಯಂ ಲ್ಯಪ್ ಕೃತ್ವಾ ಕ್ತ್ವಾ ಕ್ತ್ವಾ ಪ್ರತ್ಯಯಸ್ಯ ಸ್ಥಾನೆ ಲ್ಯಪ್ ಆದೇಶಃ ಅತಏವ ಉಪಸರ್ಗಃ. ಸೊ ದಟ್ ಇಸ್ ವೈ ದೇವ್ ಗಿವನ್ ದ ಉಪಸರ್ಗ ಟು ಶೋ ದಟ್ ಐ ಮೀನ್ ಬಿಕಾಸ್ ಲ್ಯಪ್ ಆಪರೇಟ್ಸ್ ಓನ್ಲಿ ಇಫ್ ದೇರ್ ಇಸ್ ಅನ್ ಉಪಸರ್ಗ. ಸೊ ಯು ಹ್ಯಾವ್ ಆದಿಧಿ ಯ ಯಕಾರಾದೌ ಪ್ರತ್ಯಯೇ ಪರೇ ಈಕಾರಸ್ಯ ಲೋಪೆ ಆದಿಧ್ಯ ಇತಿ ರೂಪಂ. ಯಕಾರಾದೌ ಇಕಾರಾದೌ ಚ ಪ್ರತ್ಯಯೇ ಪರೇ ದಿಧಿವೇವ್ಯೋ ಅಂಗಸ್ಯ ಲೋಪಃ ಭವತಿ. ಅತ್ರ ಏಕಃ ಪ್ರಶ್ನಃ, ಯಕಾರೇ ಪರೇ ಲೋಪಃ ಕರ್ತವ್ಯಃ, ಅದರ್ವೈಸ್ ದ ಫಾರ್ಮ್ ವುಡ್ ಬಿ ಆದಿಧೀಯ. ಇಕಾರೇ ಪರೇ ಲೋಪಃ ಕಿಮರ್ಥಃ? ಈವನ್ ಇಫ್ ವಿ ಡೂ ಸವರ್ಣ ದೀರ್ಘ ಯು ವಿಲ್ ಸ್ಟಿಲ್ ಹ್ಯಾವ್ ದ ಇಕಾರ. ವೈ ಲೋಪ? Any guesses?
Here, do we have Akarna Sidra? Shouldn't it be Iyengu Anga?
Yes. So, always remember Akasarna Dirkaha is a Varna Karya. It will always be overruled by the Anga Karya, which can be either Atishwadhatu Bhuvam Yu or Iyengu Anga. Or, in this case, it is not Iyang. So, the Apavada to Iyang one. Anybody take a guess? The answer is Anekat.
Iyang.
Yes. So, as soon as it is anekat. As I said, the normal case for ikaranta is yang. That is providing there is only one ach. As soon as there is the second ach, as you can see, dhidhi and vevi all have two ach. So, eranekacho asanyoga purvasya. Ehe ivarnanta varnantasya anekachaha angasya asanyoga purvasya yan bhavati. So, in this case, if we did not have the lopa, yadi lopaha nasi na bhavishyat tarhi atra yanadeshaha syat. So, as you can see in the next, the karya for that is that. So, haladau piti apiti cha kimapi karyam na bhavati. Yato hi pitsu didhi vevitam ityanena guna nishedhaha apitsu guna na bhavatyeva. Yato hi iti cha ityanena iva guna nishedhaha siddhyati. Kathanchit gunaha na bhavati. Ajadau piti apiti cha eranekacho asanyoga purvasya ityanena yanadeshaha etayoho utsargikaha. So this is also an utsargika karya, providing there is anekach. So yadi ekach tarhi iyang, yadi anekach tarhi yan. Okay. So again, this is a sutra which should always be remembered. So there are certain, you know, the standard set of sutras which should remain in memory always. The special sutras can always be looked up. But the normal ones, like say sarvadhatuka ardhadhatuka yohu or pugantalabhu padhasya, so guna is always a standard karya. Similarly, yang, uvang and also yan, eranekacho sanyoga purvasya. Atra ajadav pratyaye anena sutrena yan bhavati, ikaradav pratyaye paretu jivarnayoho didhivevyoho ityanena ikarasya lopaha, dhatoho ikarasya lopaha. So this is actually ikaradav, it need not be dirgha ikara, whether it is rasva or ika, dirgha doesn't matter. So ivarnadav pratyaye pare jivarnayor didhivevyoho ityanena dhatoho ikarasya lopaha bhavati. So didhin dhatoho yatra yatra kesaravarna drishyate tatra kimapi karyam nasti. So haladav pratyay haladishu pratyayeshu pareshu kimapi karyam nasti didhi itteva. Ajadishu pratyayeshu eranekacho sanyoga purvasya ityanena yanadeshaha didhyate 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 didhye ityadini rupani ikaradav pratyaye pare sarvatra vidhilinglakare tatha langlakare uttamaika vachane. So didhi ityatra ikarasya lopaha jivarnayor didhi vevyoho iti sutrena ataha didh adidhi didhita didhiyatam ityadini rupani. Meenakshi,
didhite
Adidhi
Vahi adhi mahi. Vidhita, vidhiyatam, vidhiran, vidhitaha, vidhiyatam, vidhidvam, vidhiya, vidhivahi, vidhivahi.
Wait. Yes, sorry.
What? Avehi, verb. How does it form avehi? It's also in dhatu.
Avehi, it's ava, upasarga, and ihi.
Ihi.
Ihi, eti itaha yanti, etu itat itam yantu, ihi itat itam ita. Ihi, iti lotlakare madhyam purusha ekavachane, ihi. So, ava, ihi.
Ava, ihi. Thank you.
Okay. Didhing dhatoho iva veving dhatorapi samanani rupani. So veving is exactly the same. So vevite, vevyate, vevyate, vevishe, vevyate, vevidhe. Vevye, vevivahe, vevivahe. Ityevam rupena samanani rupani bhavanti veving dhatoho. Evam ikarantaha dhatavaha adhitaha. Agre ukarantaha dhatavaha. Ukarantaha bhavaha dhatavastanti gane. Yu mishrana mishranayohu. Nu stutau. Tukshu shabde. Kshnu tejane. Shnu prasravane. Dyu abhigamane, shu prasavaishvaryayohu, ku shabde, nung apanayane, ityete samanyaha dhatavaha ukarantaha, tatra tukshu ityatra adinyetudavaha ityanena tu ityasya itsamya lopaha, shnu ityatra dhatvadeshasaha ityanena shakarasya sakaraha, tatha nakarasya nakaraha, snu iti bhavati. Evam shu ityatrapi dhatvadesha saha ityanena su. So all the sutras should be remembered at every step, the prakritika karyani. Ete dhatavaha samanya dhatavaha urnunya achadane ru shabde shtun stutau iti trayaha dhatavasanti teshu kaschid visheshaha. So there is something special about these three. Other than those, the normal ukarantas, these are all normal. That is, the usual karyas for ukarantas will apply. Okay. So, what are the normal karyas for an ukaranta dhatu? Kaha. Na, sadha, samanyam karyam kim bhavati. Somebody wants to guess.
If it is pit, then it will be sarvadhatu karadase prayoho, it will get guna. Then if it is apit, then you will get iyang vongo, that will come, because if it's ending in because of dhatu, then you will get iyang vong. Those are the two things I can think of.
So that's it. So pitsu gunaha. So haladaupiti gunaha, ajadaupiti gunaha avadeshaha, haladau apiti kimapi na bhavati, ajadau apiti atishnu dhatu bhuvam yivoriyang vangau ittenena uvang adeshaha. So those are the normal karyas which we would predict for an ukaranta dhatu. Kaha visheshaha iti pashyamaha. So the purvam kaschit prashnaha. How does shu escape shah pratyayasya? Shah pratyayasya. Sayam dhatu na pratyayaha.
I think I got it. Ukara is it, right?
No, it. It is su.
Okay, it's su. Yeah. Okay, so how does it escape it then?
Huh?
It's only for a pratyaya.
Yeah, pratyayasya eva shakara saitsamya.
Okay, so you didn't say that about shnu then. Shnu was...
There also, I said it gets sakaradesha, not shahpratyasya. Dhatvadesha saha, ittenena shakarasya sthane sakaradesha. Shnu.
Yeah, okay. Yeah, thank you.
Tarhi ukarantanam visheshah kaha. This is it. Uto vriddhihi lukihali. Iti sutramasti. Utaha iti shashti. Vriddhihi iti prathama. Luki iti saptami. Hali ityapi saptami. Piti sarvadhatuke ityanu artate. Utaha nama ukarantasya angasya. Vriddhihi bhavati. Kutra haladau piti sarvadhatuke. Luki sati. Yatra vikaranasya lukbhavati. Tatra ukarantasya angasya. Vriddhihi bhavati haladau piti sarvadhatuke. Gunasya apavadaha. So overruling guna. If it is a haladi pit pratyaya. In the adadigana. Luki. Adipradvidibhya shapaha ittenena shapo. Luki sati. Vriddhihi. Bhavati ukarantasya. Ukarantasya angasya vriddhihi syat lukisati haladau piti sarvadhatuke. Iti sutrarthaha. So u t shap shapaha luk. So that is assumed. So haladi pit sarvadhatuka pratyayaha lukisati vriddhau ukaraha. So yauti iti rupam. Ukaranta nam karyani. Haladau piti uto vriddhir lukihali ityanena vriddhihi. Ajadau piti sarvadhatuka adhadhatuka yoho ityanena gunaha avadeshaha. Haladau apiti nakinchit karyam. Ajadau apiti achishnudhatu bhruvam ityanena uvangadeshaha. So these are the karyas for ukarantas in the adadigana. So you iti dhatoho haladau piti vriddhihi yau yauti yaushi yaumi yautu ayaut ayauh iti ajadau piti gunaha yu ani yo ani echo ayavaya avaha ityanena avadeshe yavani yavani yavava yavama haladau apiti kimapi karyam nasti ajadau apiti achishnudhatu bhruvam ityanena uvangadeshaha yuvanti yuvantu ayuvan ityetani rupani. Rao mohanaya
hari om shruyatava
shruyate.
Okay, good morning, happy new year to everybody. Yauti yutaha yuvanti yaushi yutaha yutha yaumi yuvaha yumaha yautu yutat yutam yuvantu yuhi yutat yutam yuta yuvani yuvava
yavani yavani
yavani yavava yavama lanlakare ayaut ayutam ayuvan ayaushi
ayauhu
ayauhu ayutam ayuta ayavam ayuva
ayuva ayum
ayuva ayum ayuma right okay yuyat yuyatam yuyuhu yuyaha yuyatam yuyata yuyam yuyava yuyama.
Samyak.
Thank you.
So sarvesham ukarantanam, so those which were in the first column. So the normal ones, so all these have similar forms. Nu sutau, nauti, nutaha, nuvanti, iti, kshauti, kshutaha, kshuvanti, kshnauti, kshnutaha, kshnuvanti, snauti, snutaha, snuvanti, dyauti, dyutaha, dyuvanti, sauti, sutaha, suvanti, kauti, kutaha, kuvanti, sarveshamapi, samanani rupani, nung apanayane iti dhatuhu, nitvat, ayam, atmanepadi. So, karyani to samanani. Tatra haladi pit prateha nasti atmanepada pratyayeshu ataha vriddheha prasaktihi nasti haladi apitsu kimapi karyam na ajadau piti gunaha avadeshaha ajadau apiti uangadeshaha nute nuvate nuvate ityadini rupani. So anybody? Mahadevan.
Nuvate.
Nute.
Sorry. Nute.
Nuvate.
Nuvate. Nute. Nuvate. Nute. Nuve. Nuvahe. Lumahe. Nutam. Nuvatam, Nuvatam, Nushme, Nuvatam, Nudhvam, Nuvai,
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 Nuvai, Navavahai, Navamahai, Nuta,
Annuta,
Nuvatam,
Annuta,
sorry, sorry, Annuta, Annuvatam, Annuvata, Annutaha, Annuvatam, Anubham, Anubhi,
Anubhi,
Anubhi, Anubahi, Anumahi, Nubhita, Nubhiyatam, Nubhiran,
Nubhita,
Nubhiyatam, Nubhidvam, Nubhiya, Nubhivahi, Nubhivahi.
Yes. Thank you. So, evam samanyanam ukarantanam rupani bhavanti. So, the special ukarantas, this is, we will see in the next class. I could have prepared, I thought, well, since the number of slides was more, we can cover today with this, but yeah. So, we will look at the forms of the special ukaranta dhatus. What is there is some special karyas about these, and then proceed for the rest of the ajanta dhatus in the next class. Any questions? No, mastu. Yenakshara samamnayam adhigamya maheshwarat krutsnam vyakaranam proktam tasmai paninaye namaha vakyakaram vararuchim bhashyakaram patanjalim paninim sutrakaram cha pranatosmi munitrayam. There is a question. When we finish this gana, what will we do? We will do a recap of the whatever we have learnt in the Sarvadhatuka Khanda. And that's it for this course. So, I mean, we have to take the Ardhadhatuka Khanda next. But I'm not sure if it will be immediately or after a break. So, we'll definitely do the Ardhadhatuka Khanda in, you know, I mean, take it up as a separate course. Yes, because we can have this as Sarvadhatuka Khanda as separate. Yes. Has the last class been uploaded? Yes, it has been uploaded. I mean, I couldn't do it over the last month. I've uploaded it a couple of days ago. So you can just have a look at it.
Okay. Yeah, thank you.